शिवाभ्याम् नवयौवनाभ्याम् परस्पराश्लिष्टवपुर्थराभ्याम् नागेन्द्रकन्या वृषकेतनाभ्याम् नमो नमः शङ्कर पार्वतीभ्याम् नमः शिवाभ्याम् वृषवाहनाभ्याम् निरुचि विष्णुसुपूजिताभ्याम् विभूतिपाटीरविलेपनाभ्याम् नमो नमः शङ्कर पार्वतीभ्याम् अनघं जनकं जगतां प्रथमं वरदं करशूलधरं सुलभं करुणाम्बुनिधिं कलुषापहरं प्रणमामि महेश्वरमेकमहम् कमलं कमलोद्भव गीतगुणम् शमदं समदासुरनाशकरम् रमणीय रुचिं कमनीयतनं नमसाम्ब शिवं नत पापहरम् शिवं शङ्करं बन्धुरं सुन्दरेशं नटेशं गणेशं गिरीशं महेशं दिनेशेन्दुनेत्रं सुगात्रं मृडानि पतिं श्रीगिरीशं हृदा भावयामि भृङ्गीच्छा नटनोत्कटः करिमदग्राही स्फुरन्माधवाह्लादो नादयतु महासितवपुः पञ्चेषु नाचादृतः सत्पक्षः सुमनोवनेषु स्वपुनः साक्षान्मदीये मनोराजीवे भ्रमराधिपो विहरताम् श्रीशैलवासी विभुः सोमोत्तम् सत्सुरपरिषदाम् एष जीवातुरीशः पाशच्छेत्तापदयुगजुषाम् हुल्लमल्लीनिकाशः ध्येयो देवः प्रकटितवधूरूपवामात्मभागः श्रीशैलाग्रे कलितवसतिर्विश्वरक्षादुरीणः येणम् पाणौ शिरसि तरुणोल्लासमेणाङ्कखण्डन् पार्श्वे वामे वपुषि तरुणि दृक्षुकारुण्यलीला भूतिम् फाले स्मितमपि मुखे गाङ्गमम्भः कपर्दे बिभ्रत्प्रेम्णा भुवनमखिलम् श्रीगिरीशस्तपायात् श्रीशैले स्वर्णशृङ्गे मणिगणरचिते कल्पवृक्षाणि शीते भीते सौवर्णरत्नस्फुलितनवगृहे दिव्यपीठे सुभार्हे आसीनः सोमचूडः सकरुणनयनः साङ्गनस्मेरवस्त्रः शम्भुः श्रीभ्रामरीशः प्रकटित विभवो देवता सार्वभौमः या योगि बृन्दहृदयाम्बुजराजहंसी मन्दस्मितास्तुतमुखी मधुकैटभग्नी विघ्नान्धकारतटभेदपटीयसी सा मूर्तिः करोतु कुतुकम् भ्रमराम्बिकायाः कस्तूरीतिलकाञ्चितेन्दुविलसत्प्रोद्भासि फालस्थली कर्पूरद्रवमिश्रचूर्णकपुरामोदोल्लसद्वीटिका లోలాపాంగ తరంగితైరధికృపాసారైర్సదానందినీ శ్రీశైలస్థలవాసినీ భగవతీ శ్రీమాతరం భావయే. రాజన్మత్తమరాళమందగమనాం రాజీవభద్రేక్షణాం రాజీవ ప్రభవాది దేవమకుటై రాజపదాంభోరుహాం రాజీవాయతపత్రమండితకుచాం రాజాధిరాజేశ్వరీ శ్రీశైలస్థలవాసినీ భగవతీ శ్రీమాతరం భావయే. శ్రీనాథాదృతపాలితత్రిభువనాం శ్రీచక్రసంచారిణీ గానాసక్తమనుజ్ఞయౌవనసద్గంధర్వకన్యాదృతాం దీనానామతివేళభాగ్యజననీ దివ్యాంబరాలంకృతాం శ్రీశైలస్థలవాసినీ భగవతీ శ్రీమాతరం భావయే. ఉభౌ దర్భీ కుంభౌ మణికనక సంభావిత గుణౌ దధానా పాణిభ్యాం అమృతరసమృష్టాన్న కలితౌ కడాఢ్య కళ్యాణి కలిత సదన శ్రీగిరిశిరసి అసౌభ్రామర్యం వా రచయతు మదిష్టార్థ విభవం.